एष रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिः विद्यादेवी भण्डारी अद्यतो बंगलादेशस्य द्विदिवसीयं राजकीय भ्रमणं विदधाना वर्तते। राष्ट्रपतेः भ्रमणस्य क्रमे बंगलादेशेन सह तिसृषु संविधासु हस्ताक्षरणस्य कार्यक्रमः निर्धारितोऽस्तीति सिंहप्रासादे ह्य आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ अज्ञापयत्। भ्रमणस्य क्रमे सांस्कृतिक सम्बन्धेन पर्यटन क्षेत्रेण कृष्या पशुपक्षिषु प्रयुक्तव्येन विषादी पदार्थेन च सह रेलयान यातायात जलयान विश्रामस्थल सुविधाया नेपालेन सह संयोजनस्य बंगलादेशेन नेपालात् विद्युत क्रयणाय विधीयमानस्य प्रयासस्य च विषययो विमर्शनं भवतीति मन्त्री गुरूङ ज्ञापितवान्। राष्ट्रपते भण्डारिणः बंगलादेशस्य राजकीय भ्रमणं प्रपूर्य स्वचैत्रस्य दशमे दिवसे स्वदेश प्रत्यावर्तनस्य कार्यक्रमः निर्धारितोऽस्ति। राष्ट्रपतेः भण्डारिणः भ्रमणस्य पूर्वसन्ध्यायं नेपाल प्रज्ञा प्रतिष्ठानेन नेपाल बंगलादेश सम्बन्ध सम्बद्धं पुस्तकं प्रकाशितं वर्तते। परराष्ट्रविदा हिरण्यलाल श्रेष्ठेन लिखिते नेपाल बंगलादेश सम्बन्ध नामके पुस्तके एकसप्तत्यधिकोनविंशतिशततमे ख्रीष्टवर्षे उदितेन बंगलादेशेन सह नेपालस्य सम्बन्धस्य देशद्वयस्य सेनायाः व्यवस्थापिकायाः सम्बन्धस्य च विषयाः चर्चिताः सन्ति। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ कथयति नेकपा माओवादी केन्द्रेण सर्वकाराय दत्तं समर्थनं यथावत् अस्ति हेतोः सम्प्रति सर्वकारस्य संस्थापनाय अनुचित गठबन्धनस्य निर्माणम् आवश्यकम् नास्ति। संचार सूचना प्रविधि मन्त्रालये गतदिने आयोजिते पत्रकार सम्मेलने मन्त्री गुरूङ विपक्षी दलैः अविश्वासस्य प्रस्तावम् आनीय तस्मिन् पारिते सत्यपि एकपा नेकपा एमाले दलं प्रतिपक्षे उषित्वा आगामिनो निर्वाचनस्य पूर्वकार्यं विधास्यति भूयोऽपि बहुमतम् आनेष्यति इति च विश्वासं व्यक्तवान्। संचार मन्त्री गुरूङ दलाभ्यन्तरे विहितेन समूह निर्माणेन सर्वकारस्य दलस्य च कार्येषु अवरोधः उद्भवतीति भासमाणः समूह निर्माणक्रमस्य समाप्तेः पश्चात् राष्ट्रं गतिशीलं भविष्यतीति विश्वासं च अभिव्यनक। मन्त्री गुरूङ चैत्रस्य द्वितीय सप्ताहात् काष्ठमण्डपवासिनां प्रतिक्रियं मेलञ्ची नद्याः जलम् आगमिष्यति। वैशाख मासात् उपरितन तामाकोशी नद्या प्रथम प्रखण्डात् 670 मेगावाट मितायाः विद्युतः उत्पादनं च प्रारप्स्यते इति अबोधयत्। सर्वकारेण वर्तमानार्थिक वर्षस्य कृते गोधूमस्य न्यूनतम मूल्यं निर्धारितं वर्तते। गोधूमस्य प्रति क्विंटल मितं 1003 एकादशाधिक शतस्य च रूप्यकाणाम् अंकमानेन मूल्यं निर्धारितं वर्तते। एवमेव सर्वकारेण अतिथिगृहोद्योगस्य रूपेण पंजीकृत्य संचाल्यमानानाम् उद्योगानां मध्ये नियमिततया नवीकृत्य प्रस्तुत कर विवरणेभ्य अतिथिगृह भोजनालयेभ्य गतवर्षस्य चैत्र मासस्य 9 दिवसतः अस्य वर्षस्य भाद्रमास अन्तं यावत् 100%, अस्य वर्षस्य आश्विन मासस्य प्रथम दिवसात् अस्य वर्षस्य माघमासान्तं यावत् 50% च सौविध्यं दातुं निर्णीतम् अस्तीति मन्त्री गुरूङ समसूचयत्। नवनियुक्तः महान्यायाधिवक्ता रमेश बडालः ह्य पदगोपनीयतयोः शपथम् अगृह्णात्। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजिते विशेष समारोहे राष्ट्रपतेः विद्यादेवी भण्डारिणः समुपस्थितौ प्रधान न्यायाधीश चोलेन्द्र शमशेर जवरा नवनियुक्तं महान्यायाधिवक्तारं बडालं पदगोपनीयतयोः शपथम् अग्राहयत्। समारोहे उपराष्ट्रपतिः नन्दबहादुर पुनीत्यस्य प्रधानमन्त्रिणः केपी शर्मा ओलिनः राष्ट्रिय सभायाः अध्यक्षस्य गणेश प्रसाद तिमलसिन्हाभिदस्य अन्यासाम् विशिष्ट व्यक्तिनां च उपस्थितिः आसीत्। शपथग्रहणस्य अनुपदमेव ह्यैव महान्यायाधिवक्ता वडालः पदभारं च अवहत्। पदभार ग्रहणस्य क्रमे महान्यायाधिवक्ता वडालः संविधानं विधिञ्च पूर्णरूपेण परिपाल्य कार्यं विधीयते इति प्रतिबद्धतां व्यक्तवान्। सभामुखेन अग्निप्रसाद सापकोटाविदेन संघीय संसद प्रतिनिधिसभाया अन्तर्गतानां समितीनां सभापतिभिः सह समितिषु विद्यमानानां विधेयकानाम् अवस्थायाः विहितानां कार्याणां च विषये ह्य ज्ञातं वर्तते। सभामुखः सापकोटा स्वीय कार्यकक्षे सभापतिभिः सह संयुक्तोपवेशम् आयोज्य संसद पुनस्थापनायाः अवस्थायां समितिषु विद्यमानानां विधेयकानाम् अवस्थायाः कार्याणां च विषये अजानादिति राज्य व्यवस्था सुशासन समितेः सभापतिः शशिश्रेष्ठः अज्ञापयत्। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः नेपाली जनतया स्वस्य कृते निर्मिते संविधाने पश्चात्तन दिनेषु विहितं प्रहारं प्रति चिन्तां व्यनक्ति षड् पञ्चाशत् तमस्य अन्तर्राष्ट्रिय जाति विभेदोन्मूलन दिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे असौ माओवादीनाम् आन्दोलनेन स्थापिताः समावेशिता समानुपातिकी मान्यता च कथं तेजोहीनाः विधातुं शक्यन्ते इत्यत्र देशाभ्यन्तरे बहिश्च अनेकानि षड्यन्त्राणि विधीयमानानि सन्तीति आरोपयत। स्वास्थ्य जनसंख्या मन्त्रालयेन प्रतिवेशी देशस्य नेपाल प्रवेश बिन्दुषु स्वास्थ्य मापदण्डस्य पालनं कारयितुं संक्रमणं परीक्षितुं च सम्बद्धाः स्वास्थ्य निकायाः निर्दिष्टाः सन्ति। मन्त्रालयस्य गतदिवसीय संचार संक्षेप कार्यक्रमे महामारी रोग नियन्त्रण महाशाखाया निर्देशकः डा कृष्ण प्रसाद पौड्यालः सम्प्रति प्रतिवेशिनी भारतदेशे कोरोना विषाणो संक्रमणं वर्धमानम् अस्ति हेतोः नेपाल भारत सीमायाः सर्वेषु प्रवेश बिन्दुषु ज्वरं लक्षणं च परीक्षितुं सम्बद्धाः स्वास्थ्य कार्यालयाः निर्दिष्टाः सन्तीति अज्ञापयत। एवमेव मन्त्रालयेन प्रतिवेशी देशेषु कोरोना संक्रमणं वर्धमानम् अस्ति हेतोः नेपालेऽपि अस्य संकटस्य वर्धनं सम्भाव्य आराष्टम सभा जनप्रदर्शन मेलन गोष्ठी सम्मेलनोपवेश प्रवृत्तिन जनसम्बद्ध युतान व्यवसायान तथा विधानी कार्याणि च नकर्तुम् अनुरोधं वर्तते। अत्रान्तरे नेपाले ह्यः सप्तसप्तत्यां जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्य षडुत्तर शतं जना कोरोना विषाणो संक्रमणात् मुक्ता सन्ति। सम्प्रति गभीर लक्षण युतानां एकत्रिंशतो जनानां सघनोपचार कक्षे पञ्चानां जनानां च कृत्रिम श्वास प्रश्वासोपकरण करणेषु उपचार विद्यमानोस्तीति स्वास्थ्य मन्त्रालयो ज्ञापयति। अधिकार दुरूपयोगानुसन्धान आयोगेन औषध व्यवस्था विभागस्य विराटनगर शाखा कार्यालये कार्यरतस्य औषध निर्माणाधिकृतस्य सरोज सुवेदिनः विरूद्धे विशेष न्यायालयः न्यायिक प्रकरणं पञ्जीकारितं वर्तते। औषधालय सञ्चालनस्य प्रयोजनाय सेवाग्राहितो लक्षद्वयस्य रूप्यकाणाम् उत्कोच ग्रहणस्य अवस्थायां निगृहितस्य सुवेदिनः कृते हानिवित्तस्य अनुसारेण दण्डनम् अभियाच्य ह्य विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितमिति आयोगस्य प्रवक्ता नारायण प्रसाद रिशालः अज्ञापयत्। राष्ट्रिय मानवाधिकार आयोगेन जातीय विभेदस्य घटनाया सम्बन्धे सूक्ष्मानुसन्धानं विधाय दोषिणः विधेः परिधौ आनेतुं पीडितान् मानसिक पीडातो मोचयितुं च सर्वकारः अनुरुद्धोऽस्ति इति समाचारः।